ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। श्रीशुक उवाच, अयीलस्य चोर्वशी गर्भात् सदा सन्नात्मजा नृप, आयुश्रुतायुः सत्यायुरयोऽथ विजयो जयः। श्रुतायोर्वसुमान् पुत्रः सत्यायोश्च श्रुतञ्जयः, रयस्य सुत एकश्च जयस्य तनयो मितः। भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः, तस्य जन्नो सुतो गङ्गाम् गण्डूषीकृत्य यो पिबत्। जन्नोऽस्तु पुरुस्तत्पुत्रो बलाकश्चात्मजो जकः, ततः कुशकुशस्यापि कुशाम्बुस्तनयो वसुः। कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः, तस्य सत्यवतीम् कन्यामृचीको याच तद्विजः। वरम् विसदृशम् मत्वा गाधिर्भार्गवमब्रवीत्, एकतः श्यामकर्णानाम् हयानाम् चन्द्रवर्चसाम्, सहस्रम् दीयताम् शुल्कम् कन्यायाः कुशिका वयम्। इत्युक्तस्तन्मतम् ज्ञात्वा गतः स वरुणान्तिकम्, आनीय दत्त्वा तानश्वानुपयेमे वराननाम्। स ऋषिः प्रार्थितः पत्न्या स्वस्वा चापत्यकाम्यया, शपयित्वोभयैर्मन्त्रैश्चरुम् स्नातुम् गतो मुनिः। तावत् सत्यवती मात्रा स्वचरुम् याचिता सती, श्रेष्ठम् मत्वा तया यच्छन् मात्रे मातुरदत् स्वयम्। तद्विज्ञाय मुनिः प्राह पत्नीम् कष्टमकारषीः, घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः। प्रसादितः सत्यवत्यामैवम् भूदिति भार्गवः, अथ तर्हि भवेत् पौत्रो जमदग्निस्ततो भवत्। सा चाभूत् सुमहापुण्या कौशिकी लोकपावनी, रेणोसुताम् रेणुकाम् वै जमदग्निरुवाहयाम्। तस्याम् वै भार्गवऋषे सुता वसुमदादयः, यवीयान् जज्ञ एतेषाम् राम इत्यभिविश्रुतः। यमाहुर्वासुदेवांशम् हैहयानाम् कुलान्तकम्, त्रिसप्त कृत्वो य इमाम् चक्रे निक्षत्रियाम् महीम्। दुष्टम् क्षत्रम् भुवो भारमब्रह्मण्यमनीनशत्, रजस्तमो वृतमहन् फल्गून्यपि कृतेम् हसि। राजोवाच, किम् तदम्भो भगवतो राजन्नैरजितात्मभिः, कृतम् येन कुलम् नष्टम् क्षत्रियाणामभीक्ष्णशः। श्रीशुक उवाच, हैहयानामधिपतिरर्जुनः क्षत्रियर्षभः, दत्तम् नारायणस्यांशमाराध्य परिकर्मभिः। बाहून् दशशतम् लेभे दुर्धर्षत्वमरातिषु, अव्याहतेन्द्रियौजश्री तेजो वीर्ययशो बलम्। योगेश्वरत्वमैश्वर्यम् गुणायत्राणि मादयः, चचाराव्याहतगतिर्लोकेषु पवनो यथा। स्त्रीरत्नैरावृतः क्रीडन् रेवाम्भसि मदोत्कटः, वैजयन्तीम् स्रजम् बिभ्रद्रुरोध सरितम् भुजैः। विप्लावितम् स्वशिबिरम् प्रतिश्रोतः सरिज्जलैः, नामृष्यत्तस्य तद्वीर्यम् वीरमानि दशाननः। गृहीतो लीलया स्त्रीणाम् समक्षम् कृतकिल्बिषः, माहिष्मत्याम् सन्निरुद्धो मुक्तो येन कपिर्यथा। स एकदा तु मृगयाम् विचरन् विपिने वने, यदृच्छया श्रमपदम् जमदग्नेरुपाविशत्। तस्मै स नरदेवाय मुनिरर्हणमाहरत्, ससैन्यामात्यवाहाय हविष्मत्या तपोधनः। सवीरस्तत्र तद्दृष्ट्वा आत्मैश्वर्यातिशायनम्, तन्नाद्रियताग्निहोत्र्याम् साभिलासः स हैहयः। हविर्धानि मृषेर्दर्पान्नरान् हर्तुमचोदयत्, ते च माहिष्मतीम् निन्युः सवत्साम् क्रन्दतीम् बलात्। अथ राजनि निर्याते राम आश्रम आगतः, श्रुत्वा तत्तस्य दौरात्म्यम् चुक्रोधा हिरिवाहतः। घोरमादाय परशुम् सतूणम् चर्मकार्मुकम्, अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम्। तमापतन्तम् भृगुवर्यमोजसा धनुर्धरम् बाणपरश्वधायुधम्, ऐणेय चर्मम्बरमर्कधामभिर्युतम् जटाभिर्ददृशे पुरीम् विशन्। अचोदयद्धस्तिरथाश्वपत्तिभिर्गदासि बाणर्ष्टिशतग्निशक्तिभिः, अक्षौहिणी सप्तदशातिभीषणास्ताराम एको भगवान् सूदयत्। यतो यतोऽसौ प्रहरत्परश्वधो मनो निलौजा परचक्रसूदनः, ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्याम् हतसूतवाहनाः। दृष्ट्वा स्वसैन्यम् रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः, विवृक्नचर्मध्वज चापविग्रहम् निपातितम् हैहय आपतदृशा। अथार्जुनः पञ्चशतेषु बाहुभिर्धनुषु बाणान् युगपत्स सन्दधे, रामाय रामोऽस्त्रभृतां समग्रणीस्तान्येकधन्वेषुभिराच्छिनत् समम्। पुनः स्वहस्तैरचलान् मृधेङ्ग्रिपानुत्क्षिप्य वेगादभिधावतो युधि भुजान् कुठारेण कठोर नेमिना चिच्छेद रामः प्रसभम् त्वहेरिव। कृत्तबाहो शिरस्तस्य गिरे शृङ्गमिवाहरत् हते पितरि तत्पुत्रा अयुतम् दुद्रुवुर्भयात्। अग्निहोत्रीमुपावर्त्य सवत्साम् परवीरः समुपेत्याश्रमम् पित्रे परिक्लिष्टाम् समर्पयत्। स्वकर्म तत्कृतम् रामः पित्रे भ्रातृभ्य एव च वर्णयामास तच्छ्रुत्वा जमदग्निरभाषत। राम राम महाबाहो भवान् पापमकारषीत्। अवधीन्नरदेवम् यत् सर्वदेवमयम् वृथा। वयम् हि ब्राह्मणास्तात क्षमयार्हणताम् गताः। यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम् क्षमया रोचते लक्ष्मीर्ब्राह्मी सौरी यथा प्रभा। क्षमिणामाशु भगवान् स्तुष्यते हरिरीश्वरः। राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः। तीर्थसंसेवयाचाम् हो जयङ्गाच्युतचेतनः। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् नवमस्कन्धे पञ्चदशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।